पञ्चमोऽध्यायः अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि यच्छेयेतयोरेकं तन्मे ब्रूहि सुनिश्चितम् तयोस्तु कर्म सन्न्यासात् कर्मयोगो विशिष्यते नित्यसन्न्यासी यो न त्वेति न काङ्क्षति निर्द्वन्द्वो हि महाभावो सुखं बन्धात्प्रमुच्यते योगौ पृथग्वाराः प्रवदन्ति न पण्डिताः एकमप्यास्थितः सम्यक् उभयोर्विद्यते फलम् साङ्ख्यैः प्राप्यते स्थानम् तद्योगैरपि गम्यते एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति सन्न्यासस्तु महाभावो दुःखमाप्तुम् अयोगतः योगयुक्तो मुनिः ब्रह्मा न चिरेणाधिगच्छति नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्नपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्त इति धारयन् लिप्यतेन स पापेन पद्मपत्रमिवाम्भसा कायेन मनसा बुद्ध्या केवलैः इन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वा आत्मशुद्धये शान्तिमाप्नोति नैष्ठिके अयुक्तः कामकारेण फले सक्तो निबध्यते Thank you. ಜ್ಞಾನಾಶಿತಮಾತ್ಮನಃ ತೇಷಾಂ ಆದಿತ್ಯವಜ್ಞಾನಂ ಪ್ರಕಾಶಯತಿ ತತ್ಪರಂ. ಶರೀರ ವಿಮೋಕ್ಷಣಾತ್ కామక్రోధోద్భవం వేగం సయుక్త ససుఖీ నరగా. చక్షుశ్చైవాంతరే భృగో ప్రాణాపానం సమం కృత్వా నాసాభ్యంతరచారిణం యతేంద్రియమనో బుద్ధిః మునిః మోక్షపరాయణః విగతేచ్ఛాభయక్రోధో యః సదా ముక్తయేవ సదా.
యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే.
ధర్మసన్యాసయోగో నామ పంచమోధ్యాయః.